चतुर्थोऽध्यायः ध्यानम् ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुत्वहन्तीं त्रिनेत्रां सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसां पूरयन्तीं ध्यायि दुर्गां जयाख्यां त्रिदश परिवृतां
तु देवि कुपितं भ्रुकुटी करालं मुत्य
शस्तदतीवचित्रम् कैर्जीव्यते हि कुपितान्तकदर्शनेन देवि प्रसीद परमा भवति भवाय सत्यो विनाशयसि गोपवति कुलानि विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुफिपुलं महिषासुरस्य ते सम्मता जनपदे शांसि न च सीधति धर्मवर्गः धन्यास्त एव निभृतात्मज भृत्यदारा येषां सदाभ्युदयदा भवति प्रसन्ना धर्म्याणि देवि सकलानि सदैव कर्मण्यत्यादृतः प्रतिदिनं सुकृते करोति स्वर्गं प्रयाति च ततो भवति प्रसाद जन्तो स्वस्थै स्मृतामतिमतीव शुभं ददासि दारिद्र्यदुःखभयहारिणि कात्वतन्या सर्वोपकारकरणाय सदा द्रचिता केभिर्हतैर्जगदुपेति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापं संग्राममृत्युमधिगम्य दिवं प्रया शस्त्रं लोकान् प्रयान्तु रिपवोपिः शस्त्रभूता इत्थं मतिर्भवति तेष्वपि तेति साध्वी खड्गप्रभानि करविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणां यन्नागता विलयमंशुमदिन्दुखण्डयोग्याननं तव विलोकयतां तदे शमनं तव देविशीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः वीर्यं च हन्त्रिहृतदेव पराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थं केनोपमा भवतु तेस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहा खट्कीन चाम्बिके घण्टास्वनेन नः पाहि चापत्यानिस्वनेन च प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वरि सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थगौराणि रक्षास्मांस्तथा भुवम् अर्धशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ऋषिरुवाच एवं स्तुता सुरैः दिव्यैः कुसुमैर्नन्दनोद्भवैः अर्चिता जगतां धात्री तथा गन्धानुलेपनैः भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तुधूपिता प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान् देव्योवाच प्रियतां त्रिदिशा सर्वे यदस्मत्तोऽभिवाञ्छितं देवा ऊचुः भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते यदयं निहतः क्षत्रियः। शत्रुरस्माकं महिषासुरः यदि चापि वरो देयस्त्वयास्माकं महेश्वरी संस्मृता संस्मृता त्वन्नो हिंसीथाः परमापदः यश्च मर्त्यहस्तवैरेभिस्त्वां स्तोष्यत्यमलानने तस्य वित्तरथि विभवैर्धनधारादि सम्पदां वृद्धये स्मत् प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ऋषिरुवाच इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृपा इत्येतत् कथितं भूप सम्भूता सा यथा पुरा देवी देव शरीरेभ्यो जगत्त्रयहितैषिणी पुनश्च गौरी देहात् सा समुद्भूता यथा भवत् वधाय दुष्ट दैत्यानां तथा शुम्भ निशुम्भयो रक्षणाय च लोकानां दीवानामुपकारिणी तच्छृणुष्व मया ख्यातं यथावत् कथयामि ते ह्रीं ॐ श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये चतुर्थः श्रीदुर्गार्पणमस्तु श्रीदुर्गार्पणमस्तु श्री